नमो वाचया च घृताया च अनुघृता तस्यै वाच नमो नमो वाच नमो वाचस्पतय नमर्षिभ्यो मन्त्रकृद्भ्यो मन्त्रपतेभ्यो मा मृषय मन्त्रकृत मन्त्रपतयः परा दुर्माह मन्त्रकृतो मन्त्रपदीं परादां वैश्वदेवीं वाचमुद्याचको शिवामदस्ताञ्जुष्टान् देवेभ्यः शर्म वेद्यौ शर्म पृथिवी शर्म विश्वमिदं जगतो शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्म प्रजापते भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्माहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानो मृत्योर्मापानं प्राणापानौ मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीं देवेभ्यो वाचमुद्याचकं शुश्रूषेण्या मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्ति।